एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नेकपा एमाले दलेन दलस्य निवर्तमानान् एकादश सांसदान् प्रष्टीकरणं प्रष्टुं निर्णीतं वर्तते। बालवाटार वर्तिनी प्रधानमन्त्री निवासे गतदिने उपविष्टेन स्थायी समितेः उपवेशेन स्वदलस्य अध्यक्षं केपी शर्मा ओलीनं प्रधानमन्त्रितः अपसारयितुं विपक्षिभिः सह मिलित्वा विहिते हस्ताक्षरणे संलग्नतायाः आरोपे स्वज्येष्ठस्य दशमदिवसस्य अभ्यन्तरे उत्तरप्रदानत्वेन एतान् स्पष्टीकरणं प्रष्टुं निर्णीतमिति दलप्रवक्ता प्रदीप कुमार ग्यमाली अज्ञापयत। उपवेशेन दलनेतृन् माधव कुमार नेपालम्, झलनाथ कनालम्, भीमबहादुर रावलम्, कल्याणी खड्का, रामकुमारी झाँक्री, सरला यादवान, मुकुन्द नेपालम, पुष्पा कुमारी कर्ण, कलिला खान, निरादेवी जैरू, लक्ष्मी कुमारी चौधरी इतिमाश्च स्पष्टीकरणं प्रष्टुं निर्णीतम्। स्पष्टीकरणस्य आधारेण दलेन अतिरिक्त निर्णयश्च विधास्यते इति प्रवक्ता ज्ञमाली अवदत। नेपाली कांग्रेस दलस्य सभापतिं शेरबहादेवाविदं प्रधानमन्त्रिणे परामर्शं एमाले दलीय नेपाल पक्षस्य षड्विंशत्या सांसदै हस्ताक्षरितम् आसीत्। एवमेव उपवेशेन कोरोना विषाणो विरोधिनी युद्धे स्वस्य ध्यानं केन्द्रीकर्तुमपि निर्णीतमिति प्रवक्ता ज्ञमाली अवोदयत। नेपाली कांग्रेस दलेन नेकपा माओवादी केन्द्रेण, नेकपा एमाले दलस्य नेपाल समूहेन, जनता समाजवादी दलस्य उपेन्द्र यादव समूहेन च प्रतिनिधि सभाया विघटनस्य विरूद्धे सांविधानिकं राजनीतिकञ्च प्रतिवादं कर्तुं निर्णीतं वर्तते। नयाँ बानेश्वर वर्तिनी संघीय संसद भवने ह्य उपविष्टेन एतेषां राजनैतिक दलानां संयुक्तोपवेशेन नूतन सर्वकारस्य संघटनस्य अवस्थायां सत्यमेव असांविधानिक रूपेण प्रतिनिधि सभाया विघटनं विहितमिति ज्ञापयता विपक्षी गठबन्धनेन संयुक्त रूपेण एतस्य प्रतिवादाय निर्णीतमस्ति। उपवेशस्य पश्चात् प्रकाशितायं संयुक्त विज्ञप्तौ प्रतिनिधि सभाया सहसा रात्रावेव राष्ट्रपतिना प्रधानमन्त्रिणा च विहितं विघटनम् असंवैधानिकं स्वेच्छाचारिश्चास्तीति ज्ञापयित्वा भर्सितं वर्तते। तत्पूर्वं नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन विज्ञप्तिं प्रकाश्य प्रतिनिधि सभाया 49 अधिक 100 सदस्यानां हस्ताक्षरै सह नेपाली कांग्रेस दलस्य सभापतेः शेरबहादेवाविदस्य नवीन प्रधानमन्त्री पदाय प्रामाण्यं प्रस्तुतम् इति उल्लिखितम् आसीत्। एवमेव नेपाल तरूण दलेन, वाइसिएल संघटनेन, युवा संघ नेपालेन च प्रतिनिधि सभाया विघटनं विरोधितम् अस्ति। सभामुखा अग्निप्रसाद सापकोटा कथयति प्रधानमन्त्रिणः परामर्शे राष्ट्रपतिना विहितं प्रतिनिधि सभायाः विघटनं प्रति ध्यानाकर्षितं वर्तते। ह्यो विज्ञप्तिं प्रकाशयन् सभामुखः सापकोटा अगदत् कार्यमेतत् गतपौष मासस्य प्रतिनिधि सभायाः विघटनस्य विरुद्धे 67 दिनानि यावत् विहितस्य सांविधानिकस्य, वैधानिकस्य, राजनीतिकस्य च संघर्षस्य भावनायाः सर्वोच्च न्यायालयस्य, सांविधानिक न्यायपीठस्य निर्णयस्य च विपरीतमस्ति। प्रमुख प्रतिपक्षिणो नेपाली कांग्रेस दलस्य सभापतिः शेरबहादेवा संघीय लोकतान्त्रिक गणतन्त्रस्य, नेपालस्य संविधानस्य च रक्षायै सर्वा लोकतन्त्रवादी शक्तिः एकीभवितुम् आह्वयति। सभापतिना देवाविदेन ह्यो वक्तव्यस्य माध्यमेन संघीय लोकतान्त्रिक गणतन्त्रस्य, संविधानस्य च रक्षार्थं राजनीतिकं न्यायिकं च युद्धं विधातुं प्रतिबद्धता व्यक्ता वर्तते। सभापतिः देवा प्रधानमन्त्रिणः केपी शर्मा ओलिनः पुनः प्रधानमन्त्रिणः नियुक्तेः कार्यम् असंवैधानिकम् अस्तीति आरोपयत। नेकपा माओवादी केन्द्रेण नूतन सर्वकारस्य संघटनस्य अवस्थायं सत्यमेव प्रतिनिधि सभायाः विहितस्य विघटनस्य विरुद्धे राजनीतिकः वैधानिकश्च उपचारः अन्वेष्यते। पेरिस टाण्डवर्तिनी दलस्य केन्द्रीय कार्यालये ह्य उपविष्टेन स्थायी समितेः उपवेशेन प्रतिनिधि सभायाः विघटनस्य विरुद्धे सर्वैः राजनीतिक दलैः, नागरिक समाजेन, सम्बद्ध पक्षैश्च सह मिलित्वा संयुक्त संघर्षाय निर्णीतमिति प्रवक्ता नारायणकाजी श्रेष्ठः अज्ञापयत। प्रवक्ता श्रेष्ठ प्रतिनिधि सभायाः विघटनं कोरोना महामार्या संकटे विहिता निर्वाचनस्य घोषणा छ असंवैधानिक स्तः इति उपवेशन निर्णीतमिति अज्ञापयत। नेकपा एमाले दलस्य बागमती प्रदेश सभाया संसदीय समित्या 14 प्रदेश सभा सदस्यानां दण्डन प्रक्रिया अग्रे वर्धापितास्ति। समिते ह्यस्तनोपवेशन राष्ट्रिय सभाया उपनिर्वाचने दलस्य आधिकारिकं प्रत्याशिनं प्रति अन्तर्घातः विहितः, स्वस्यैव दलस्य सर्वकारस्य विरुद्ध निरन्तरं संलग्नाः सम्भूताः, अविश्वासस्य प्रस्तावः पञ्जीकारितः, पृथक संसदीय दलम संगठितम समानान्तर गतिविधय संचालिताश्चेति आरोप्य स्पष्टीकरण स्पष्टम निर्णीतमिति नेकपा एमाले बागमती प्रदेश संसदीय दलस्य मुख्य सचेतक दीपक निरौला अज्ञापयत। प्रधानमन्त्री केपी शर्मा ओली निर्वाचन आयोगस्य पदाधिकारिणः उद्घुष्टेषु दिनांकेषु निर्वाचनस्य सम्पादनाय पूर्वकार्ये सन्नद्धः भवितुम् निर्दिशति। बालबाटार वर्तिनि प्रधानमन्त्री निवासे ह्यः प्रमुख निर्वाचन आयुक्तेन दिनेश कुमार थपलिया विधेन अन्यैः आयुक्तैश्च सह विमृशन् प्रधानमन्त्री ओली आगामिनोः कार्तिक मासस्य षड्विंशे दिवसे मार्गशीर्ष मासस्य तृतीय दिवसे च सम्पत्स्य मानस्य प्रतिनिधिसभायाः मध्यावधि निर्वाचनस्य पूर्वकार्याय सन्नद्धः भवितुम् निरदिशत। विमर्शने प्रधानमन्त्रिणा ओलिना राजनीतिक समाधानम् अपरिहार्यम् अस्तीति हेतोः राष्ट्रं निर्वाचनाय अग्रे वर्धितमिति स्पष्टीकृतमिति प्रधानमन्त्रिणः संचार परामर्शदाता सूर्य थापा अज्ञापयत। नेपाले ह्य अतिरिक्तेषु अष्टसहस्रेषु अशीत्यधिक नवशते च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। एतदनु नेपाले ह्यस्तनावधि कोरोना विषाणुना संक्रान्तानां जनानां समग्र संख्या 5,55,343 प्राप्यति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। एवमेव ह्य अतिरिक्ताः 8,48,68 जना कोरोना संक्रमणात् मुक्ताः वर्तन्ते। ह्य कोरोना संक्रमणेन अतिरिक्ता 39% जना मृता। नेपाली सेनाया विभिन्नेषु समयेषु व्यवस्थापितानां सभानां संख्याया सहिता एषा मृत्यु संख्या स्थिति मन्त्रालयेन ज्ञापितमस्ति। एतदनु कोरोना संक्रमणेन नेपाले ह्यस्तनावधि मृतानां जनानां संख्या 6,53% प्राप्त वर्तते। चीन देशस्य तिब्बत सर्वकारेण 300 मेट्रिक टन परिमाणस्य तरलीकृत प्राणवायुना सहिताः अत्यावश्यक स्वास्थ्य सामग्रीयो ह्य नेपालाय हस्तान्तरिताः सन्ति। नेपाल चीन सीमावर्तिनी तातोपानी प्रवेशबिन्दो इमा स्वास्थ्य सामग्र्यः नेपाली पक्षाय हस्तान्तरिताः सन्तीति काष्ठमण्डपस्था चीन देशीय दूतावासो ज्ञापयति। कोविड 19 विरोधिनी नेपाल सर्वकारस्य युद्धे सहयोगाय अमेरिका स्विजरल्याण्ड देशाभ्याम् ह्य विविध स्वास्थ्य सामग्र्यः उपकरणानि च प्रदत्तानि सन्ति। अमेरिका स्विड सर्वकाराभ्याम् विशेष विमानेन प्रेषिताः स्वास्थ्य सामग्र्यः सम्बद्धाधिकारिभिः नेपाल सर्वकाराय ह्य एव हस्तान्तरिताः सन्ति। त्रिभुवनान्तर्राष्ट्रिय विमानस्थले ह्य हस्तान्तरण आयोजित हस्तान्तरण कार्यक्रमे नेपालस्य कृते स्विजरल्याण्ड देशस्य राजदूत एलिसाबेथ भोन क्यापलर इमा स्वास्थ्य सामग्री हस्तान्तरयत।